ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। राजोवाच कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः। एतदाचक्ष्व भगवन् शिष्याणामक्रमम् गुरौ। श्रीशुक उवाच इन्द्रस्त्रिभुवनैश्वर्यमदोल्लङ्घितसत्पथः मरुद्भिर्वसुभिरुद्रैरादित्यैर्भुभिर्नृप विश्वेदेवैश्च साध्यैश्च नासत्याभ्याम् परिश्रितः सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः निषेव्यमाणो मघवान् स्तूयमानश्च भारत उपगीयमानो ललितमास्थानाध्यासनाश्रितः पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः विराजमानः पौलोम्या सहार्धासनया भृशम् स यदा परमाचार्यम् देवानामात्मनश्चः नाभ्यनन्दत सम्प्राप्तम् प्रत्युत्थानासनादिभिः वाचस्पतिम् मुनिवरम् सुरासुरनमस्कृतम् नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः आययौ स्वगृहम् तूष्णीम् विद्वान् श्रीमदविक्रियाम् तर्येव प्रतिबुद्ध्येन्द्रो गुरुहेलनमात्मनः गर्हयामास सदसि स्वयमात्मानमात्मना अहो बत ममासाधु कृतम् वैदभ्रबुद्धिना यन्मयैश्वर्यमत्तेन गुरु सदसि कात्कृतः को गृध्येत् पण्डितो लक्ष्मीम् त्रिविष्टपपतेरपि ययाहमासुरम् भावम् नीतोऽद्य विबुधेश्वरः ये पारमेष्ट्यम् धिषणमधितिष्ठन् न कञ्चन प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मम् तेन परम् विदुः तेषाम् कुपथ देष्ट्रीणाम् पतताम् तमसि यतः ये षद्दध्युर्वचस्ते वै मज्जन्त्यस्मप्लवा इव अथाह ममराचार्यमगाधधिषणम् द्विजम् प्रसादयिष्ये निषठः शीर्ष्णा तच्चरणम् स्पृशन् एवम् चिन्तयतस्तस्य मघोनो भगवान् गृहात् बृहस्पतिर्गतो दृष्टाम् गतिमध्यात्ममायया गुरोर्नाधिगतः सञ्ज्ञाम् परीक्षन् भगवान् स्वराट् ध्यायन् धियासुरैर्युक्तः शर्मना लभतात्मनः तच्छ्रुत्वैवासुराः सर्व आश्रित्यौ सनसम्मतम् देवान् प्रत्युद्यमम् चक्रुर्दुर्मदा आततायिनः तैर्विसृष्टेऽसुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः ब्रह्माणम् शरणम् जग्मुः सहेन्द्रानतकन्धराः तान्स्तथाभ्यर्दितान् वीक्ष्य भगवानात्मभूरजः कृपया परया देव उवाच परिसान्त्वयन् ब्रह्मोवाच अहो बत सुरश्रेष्ठा हय्यभद्रम् वः कृतम् महत् ब्रह्मिष्ठम् ब्राह्मणम् दान्तमैश्वर्यान्नाभ्यनन्दत तस्यायमनयस्यासीत् परेभ्यो वः पराभवः प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानाम् च यत्सुराः मघवन् द्विषतः पश्य प्रक्षीणान् कुर्वति क्रमात् सम्प्रत्युपजितान् भूयः काव्यमाराध्य भक्तितः आददीरन्निलयनम् ममापि भृगुदेवताः त्रिविष्टपम् किम् गणयन्त्यभेद्य मन्त्राभृगूणामनुशिक्षितार्थाः न विप्रगोविन्दगवीश्वराणाम् भवन्त्यभद्राणि नरेश्वराणाम् तद्विश्वरूपम् भजतासु विप्रम् तपस्विनम् त्वाष्ट्रमथात्मवन्तम् सभाजितोऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म। श्रीशुक उवाच त एवमुदिता राजन् ब्रह्मणा विगतज्वराः ऋषिम् त्वाष्ट्रमुपव्रज्य परिष्वज्येदमब्रुवन् देवा ऊचुः वयम् ते तिथयः प्राप्ता आश्रमम् भद्रमस्तु ते काम सम्पाद्यताम् तात पितॄणाम् समयोचितः पुत्राणाम् हि परो धर्म पितृशुश्रूषणम् सताम् अपि पुत्रवताम् ब्रह्मन् किमुत ब्रह्मचारिणाम् आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः तयाया भगिनी मूर्तिर्धर्मस्यात्मा तिथिः स्वयम् अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः तस्मात् पितॄणामार्तानामार्तिम् परपराभवम् तपसापनयन्स्तात सन्देशम् कर्तुमर्हसि वृणीमहे त्वोपाध्यायम् ब्रह्मिष्ठम् ब्राह्मणम् गुरुम् यथाञ्जसा विदेश्यामः सपत्नांस्तव तेजसा न गर्हयन्ति अर्थेषु यविष्टाङ्घ्र्यभिवादनम् छन्दोभ्योऽन्यत्र न ब्रह्मन् वयोज्यैष्ठ्यस्य कारणम्। ऋषिरुवाच अभ्यर्थितसुरगणैः पौरोहित्ये महातपाः सविश्वरूपस्तानाः प्रसन्नः श्लक्ष्णया गिरा। विश्वरूप उवाच विगर्हितम् धर्मशीलैर्ब्रह्मवर्च उपव्ययम् कथं नु मद्विधो नाथ लोकेशैरभियाचितं प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तित साधु सत्क्रियः कथं विगर्यं नु करोम्यधीश्वराः पौरोध संहृष्यति येन दुर्मतिः तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये श्रीशुक उवाच तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः पौरोहित्यमृतश्चक्रे परमेण समाधिना सुरद्विषां श्रियं गुप्ता मौशनस्यापि विद्यया आच्छिद्यादान्महेन्द्राय वैष्णव्या विद्यया विभुः यया गुप्तः सहस्राक्षो जिज्ञे सुरचमोर्विभुः तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे सप्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।